वेणु मे कवचम शुभम त्रैलोक्य मंगलम नाम कवचम परमाद्भुतम सर्वेषां पालकः सदा एवमिन्द्रादयः सर्वे सर्वैश्वर्यमवाप्नुयुः
कवचस्य ऋषिर्ब्रह्मा छन्दोनुष्टुबुदाहृतः श्रीसूर्यो देवता चात्र सर्वदेव नमस्कृतः
यश आरोग्यमोक्षेषु विनियोगः प्रकीर्तितः प्रणवो मे शिरः पातु गृणिर्मे पातु बालकम् चन्द्रबिम्बं विशदाद्यं पातु मे गुह्यदेशकम्
अक्षरोऽसौ महामन्त्रः सर्वतन्त्रेषु गोपितः शिवो वह्निसमायुक्तो वामाक्षी बिन्दुभूषितः
काक्षरो महामंत्रः श्रीसूर्यस्य प्रकीर्तितः गुह्याद्गुह्यतरो मंत्रो वाञ्छाचिन्तामणि स्मृतः
शीर्षादिपादपर्यन्तं सदा पातु मनुत्तमः इति ते
प्रदं कांतिदं नित्यं धन आरोग्य विवर्धनं पुष्ठादिरोगशमनं महाव्याधि विनाशनं सर्वं भवेत्तस्य कवचस्य च धारणा भूतप्रेतपिशाचाश्च यक्षगन्धर्वराक्षसाः
ब्रह्मराक्षसवेतालाः न द्रष्टुमपि तं क्षमाः दूरादे
पत्रे समालिख्य रोचना गुरुकुंकुमै रविवारे च संक्रांत्यां सप्तम्यां च विशेषतः धारयेत् साधकश्रेष्ठः श्रीसूर्यस्य प्रियो भवेत्।
त्रिलोहमध्यगं कृत्वा धारयेत् दक्षिणेकरे शिखायामथवा कण्ठे सोऽपि सूर्यो न संशयः।
इति ते कथितं साम्ब त्रैलोक्यमङ्गलाभिधं कवचं दुर्लभं लोके तव स्नेहात् प्रकाशितम्।
अज्ञात्वा कवचं दिव्यं यो जपेत् सूर्यमन्त्रकं सिद्धिर्न जायते।